त्वं शम्भोर्महिषी भवस्य कसुते तेनो बहासायते दैत्योऽयं महिषी भवन्नुपकतः सोऽयं कथं क्षम्यते इत्थं नु पुरणिः स्वनैरिव वदन् पादस्त्वतीयोरुषा शस्त्रप्रग्रहणात् पुरैव महिषं भिष्णन् परित्रायताम् देव्या पङ्कषयोऽद्य कोऽपि महिषद् छत्मा महान् कण्टकः पादेन हत इत्युदूटहसितं सख्या समावेदिते सत्यः कण्टकशालिना करतले नासाद्य पादाम्बुजम् गृह्णन्नार्ति विनोदनाय गिरिशो जीयात् प्रियस्ते शिवे।